ಕಥಂಬಾ ಮಹಾಕಾಯ ಸೂರ್ಯಕೋಟಿ ಸಮಪ್ರಭ ನಿರ್ವಿಘ್ನಂ ಕುರು ಮೇ ದೇವ ಸರ್ವಕಾರೈ ಸರ್ವದಾ ಸರಸ್ವತಿ ನಮಸ್ತುಭ್ಯಂ ವರದೆ ಕಾಮರೂಪಿಣಿ ವಿದ್ಯಾರಂಭಂ ಕರಿಷ್ಯಾಮಿ ಸಿದ್ಧಿರ್ಭವತು ಮೇ ಸದಾ. ಗುರು ಬ್ರಹ್ಮ ಗುರು ವಿಷ್ಣು ಗುರು ದೇವ ಮಹೇಶ್ವರ ಗುರು ಸಾಕ್ಷ್ಯಂ ಪರಂ ಬ್ರಹ್ಮ ತಸ್ಮೈ ಶ್ರೀ ಗುರವೇ ನಮಃ. ನಮಸ್ತೇಭ್ಯ ಸ್ವಾಗತಂ. ಅಸ್ಮಾಕಂ ಗೀತಾಸೋಪಾನ ವರ್ಗೇ ದ್ವಿತೀಯ ಪುಸ್ತಕಂ ದ್ವಿತೀಯ ಪುಸ್ತಕಂ ಅಸ್ತಿ. ತತ್ರ ಅಧ್ಯಯನ ವಿಷಯ ಅಸ್ತಿ ಹಲಂತ ಪ್ರಾತಿಪದಿಕಾನಾಂ ರೂಪಾಣಿ, ಸುಬಂತ ರೂಪಾಣಿ ಹಲಂತ ಪ್ರಾತಿಪದಿಕಾನಾಂ. ಪೂರ್ವಂ ಪ್ರಥಮ ಪುಸ್ತಕೆ ವಯಂ ತತ್ರ ಅಜಂತ ಪ್ರಾತಿಪದಿಕಾನಾಂ ಸ್ತ್ರೀಲಿಂಗ ಪುಲ್ಲಿಂಗ ನಪುಂಸಕಲಿಂಗಾನಾಂ ರೂಪಾಣಿ ಜ್ಞಾತವಂತಃ. ಇದಾನಿಂ ತತ್ರ ಹಲಂತ ಪದಾನಾಂ ಪ್ರಾತಿಪದಿಕಾನಾಂ ರೂಪಾಣಿ ಕಥಂ ಭವಂತಿ ಇತಿ ಇತಿ ಈ ಪಾಠ ಅಸ್ತಿ. ಅಸ್ತು, ಅತ್ರ ಗತಕಕ್ಷಾಯಾಂ ವಯಂ ಪುಲ್ಲಿಂಗ ಶಬ್ದ ಕೇಚನ ಪುಲ್ಲಿಂಗ ಪ್ರಾತಿಪದಿಕ ಹಲಂತ ಪ್ರಾತಿಪದಿಕಾನಾಂ ರೂಪಾಣಿ ಜ್ಞಾತವಂತಃ. ತೇಷು ಏಕವಾರಂ ಪುನಃಸ್ಮರಣಂ ಕುರ್ಮಃ. ಅತ್ರ ವಣಿಗ್ ಇತಿ ಅಸ್ತಿ, ತತ್ರ ವಣಿಗ್ ಇತಿ ವಣಿಕ್ ತತ್ರ ಏಕಮಸ್ತಿ ವಣಿಕ್ ಇತಿ ಈ ಪ್ರಥಮ ವಿಭಕ್ತಿ ಪ್ರಥಮ ಏಕವಚನಮಸ್ತಿ. ಇದಾನಿಂ ತತ್ರ ವಣಿಜಃ ಇತಿ ವಣಿಕ್ ವಣಿಜೌ ವಣಿಜಃ ಇತಿ ಇತಿ ಭವತಿ. ವಣಿಜಃ ಇತಿ ಬಹುವಚನೆ ಅಸ್ತಿ. ಇದಾನಿಂ ಕೀದೃಶಃ ಪದಾಂತ ತತ್ರ ಪ್ರಾತಿಪದಿಕಸ್ಯ ಅಂತಿಮವರ್ಣಃ ಕಃ ಇತಿ ಜ್ಞಾತುಂ ತತ್ರ ಅಂತಿಮ ಬಹುವಚನೆ ಪರ್ವತ ಬಹುವಚನೆ ತತ್ರ ಅಂತಿಮ ಹಲ್ವರ್ಣಂ ದೃಷ್ಟ್ವಾ ವಯಂ ಊಹಂ ಕರ್ತುಂ ಶಕ್ನುಮಃ. ಏತತ್ತು ಯಥಾ ವಣಿಕ್ ವಣಿಜೌ ವಣಿಜಃ ಇತಿ ಅಸ್ತಿ. ತತ್ರ ವಣಿಜಃ ಇತಿ ಅಸ್ಮಿನ್ ಅಂತ್ಯ ಬಹುವಚನೆ ತತ್ರ ಜಕಾರ ಅಸ್ತಿ, ತದೇವ ಜಕಾರ ಹಲ್ವರ್ಣಃ ಜಕಾರ ಅಸ್ತಿ. ಅತಃ ಏತತ್ ವಣಿಜ್ ತತ್ರ ವಣಿಕ್ 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 ಇತಿ ಈ ಪ್ರಾತಿಪದಿಕಂ ಜಕಾರಾಂತ ಪ್ರಾತಿಪದಿಕಂ ಇತಿ ಚಿಂತಯಿತುಂ ಶಕ್ನುಮಃ. ಸರ್ವತ್ರ ಪುಲ್ಲಿಂಗೆ ಕಿಂ ಭವತಿ, ಅತ್ರ ಜಕಾರ ಅಸ್ತಿ ಚೇತ್ ಕಿಂ ಭವತಿ, ಅತ್ರ ಕಕಾರಃ ಭವತಿ ಪ್ರಥಮ ವಿಭಕ್ತೌ. ಏಕಂ ಸೂತ್ರಮಸ್ತಿ ಇದಾನಿಂ ಮಾಸ್ತು, ತತ್ರ ಅಹಂ ತಥಾಪಿ ವದಾಮಿ. ತತ್ರ ಚೋಃ ಕುಃ ಇತಿ ಪದಾಂತೆ ಚಕಾರ ಅಸ್ತಿ ಚೇತ್ ತತ್ರ ಕಿಂ ಭವತಿ, ತತ್ರ ಕವರ್ಗಾದೇಶಃ ಭವತಿ. ಕು ಇತಿ ಭವತಿ ಅತ್ರ ವಾಕ್ ಇತಿ ಖಲು ವಾಚ್ ಇತಿ ಅಸ್ತಿ ಅತ್ರ ವಚ್ ಇತಿ ಅತ್ರ ವಾಚ್ ಇತಿ ಅತ್ರ ವಾಚ್ ಇತಿ ಪ್ರಾತಿಪದಿಕಮಸ್ತಿ. ವಾಕ್ ಇತಿ ಭವತಿ ವಾಕ್ ತತ್ರ ವಾಕ್ ಇತಿ ಪ್ರಾತಿಪದಿಕಂ ಭವತಿ. ಕ್ಷಮ್ಯತಾಂ, ವಾಚ್ ಇತಿ ಚಕಾರ ಅಂತ ಯದ್ಯಪಿ ಪರಂತು ತಸ್ಯ ಪ್ರಥಮ ವಿಭಕ್ತಿ ರೂಪಮಿತಿ ವಾಕ್ ಇತಿ ಅಥವಾ ವಾಕ್. ಅನಂತರಂ ತತ್ರ ಕಿಂ ಭವತಿ ವಾಕ್ ಅಥವಾ ವಾಗ್ ಇತಿ ರೂಪದ್ವಯಮಪಿ ಭವಿತುಂ ಅರ್ಹತಿ. ತತ್ರ ಪದಾಂತೆ ತತ್ರ ಕಿಮಸ್ತಿ ಪದಾಂತೆ ಪ್ರಥಮ ಕಿಮಸ್ತಿ ತತ್ರ ಕ್ಷಮ್ಯತಾಂ ವರ್ಗಸ್ಯ ಪ್ರಥಮ ವರ್ಗ ಪ್ರಥಮವರ್ಣಃ ಆದೇಶರೂಪೇಣ ಭವತಿ. ಇದಾನಿ ವಣಿಕ್ ವಣಿಗ್ ಇತಿ ಖಲು ವಣಿಗ್ ಇತಿ ಪ್ರಥಮ ಭವತಿ ಕಿಮರ್ಥಂ ಇದೆ ವಣಿಜ್ ಜಕಾರಸ್ಯ ಕವರ್ಗೀಯ ಜಕಾರಃ ಚವರ್ಗೀಯ ತೃತೀಯ ವರ್ಣಃ ಅಸ್ತಿ. ತರ್ಹಿ ಕಕಾರಸ್ಯ ಕವರ್ಗೀಯ ತೃತೀಯ ವರ್ಣಃ ಗಕಾರಸ್ತಿ ವಣಿಗ್ ಇತಿ. ಇದಾನಿ ಅಗ್ರೆ ತತ್ರ ಕಿಂ ಭವತಿ ವಾ ತತ್ರ ರೂಪದ್ವಯಮಪಿ ಭವಿತುಂ ಅರ್ಹತಿ. ಚತ್ವಂ ಇತಿ ವದಾಮ ತತ್ರ ಪ್ರಥಮ ವಣಿಕ್ ಇತಿ ಭವತಿ ತತ್ರ ವರ್ಣ ವ್ಯಂಜನಸ್ಯ ವರ್ಗೀಯ ವ್ಯಂಜನಸ್ಯ ಪ್ರಥಮ ವರ್ಣಃ ಆಗಚ್ಚತಿ ವಣಿಕ್. ಅತಃ ರೂಪದ್ವಯಮಪಿ ಭವಿತುಂ ಅರ್ಹತಿ ವಣಿಗ್ ಇತಿ ಪ್ರಥಮ ವಿಭಕ್ತಿ ರೂಪಂ ಅಥವಾ ವಣಿಕ್ ಇತಿ ಪ್ರಥಮ ವಿಭಕ್ತಿ ರೂಪಂ ಇತಿ ಭವತಿ. ವಾಗ್ ಇತಿ ಅಥವಾ ವಾಕ್ ಇತಿ ರೂಪದ್ವಯಮಪಿ ಭವಿತುಂ ಅರ್ಹತಿ. ಸುಹೃದ್ ಇತಿ ಅಸ್ತಿ, ಸುಹೃದ್ ಇತಿ ದಕಾರಾಂತ ಪುಲ್ಲಿಂಗ ಶಬ್ದಃ. ಅತಃ ತರ್ಹಿ ಸುಹೃತ್ ಸುಹೃತ್ ಇತಿ ಅಪಿ ಭವಿತುಂ ಅರ್ಹತಿ. ಸುಹೃದ್ ಇತಿ ಏಕ ಪ್ರಥಮ ವಿಭಕ್ತಿ ಏಕವಚನೆ ಸುಹೃದೌ ಸುಹೃದಃ ಇತಿ ಭವತಿ. ಇದಾನಿಂ ತತ್ರ ನಕಾರಾಂತ ತತ್ರ ತಕಾರಾಂತ ಕಿಮರ್ಥ ಪಶ್ಯತು ಅತ್ರ ಶ್ರೀಮಂತಃ ಶ್ರೀಮಾನ್ ಶ್ರೀಮನ್ ಶ್ರೀಮತ್ ಇತಿ ಪ್ರಾತಿಪದಿಕಮಸ್ತಿ. ಶ್ರೀಮತ್ ಇತ್ಯುಕ್ತೆ ಯಸ್ಯ ಯಸ್ಯ ಪಾರ್ಶ್ವೆ ಶ್ರೀಃ ಅಸ್ತಿ ಸ ಮತ್ತು ಪ್ರತ್ಯಯ ಶ್ರೀಮತ್ ಇತಿ ಭವತಿ. ಶ್ರೀಮತ್ ಶ್ರೀಮತ್ ಇತ್ಯಸ್ಯ ಪುಲ್ಲಿಂಗಪದಮಸ್ತಿ. ಅತಃ ಕಿಂ ಭವತಿ ಶ್ರೀಮಾನ್ ಇತಿ ಭವತಿ ತಕ ಶ್ರೀಮಾನ್ ಶ್ರೀಮಂತೌ ಶ್ರೀಮಂತಃ ಇತಿ ಭವತಿ. ಭವಾನ್ ಭವಂತೌ ಭವಂತಃ ಇತಿವತ್ ಭವತಿ. ಪರಂತು ಕುತ್ರಚಿತ್ ತತ್ರ ಕಿಂ ಭವತಿ ಆತ್ಮನ್ ಇತಿ ಅಸ್ತಿ ಆತ್ಮ ಆತ್ಮನೌ ಆತ್ಮನಃ ಇತಿ ಅತ್ರ ದೀರ್ಘತ್ವಂ ಭವತಿ. आत्मानः इति तादृश अस्ति. विद्वस् इति अस्ति, विद्वस् इति सकारान्तपुल्लिङ्गशब्दः, तत्र विद्वान् विद्वांसौ विद्वांसः इति भवति. तत्र अन्तिमवर्ण बहुवचने पश्यतु, तत्र सकारः अस्ति अन्तिमहल् वर्णः, अतः अन्तिमहल् वर्णः. यद्यपि अन्तिम अचुवर्ण विद्वांसः इति अकारान्त अस्ति, अकारान्त इति अकारान्तविसर्गः भवति विद्वांसः इति, परन्तु तस्मिन् हल् वर्णः अस्ति सकारः अन्ते, अतः विद्वांसः. अतः तत् सकारान्तपुल्लिङ्गशब्दः, विद्वान् विद्वांसौ विद्वांसः इति. ऋत्विग् इति अस्ति, ऋत्विग् इति प्रथमा विभक्ति एकवचनम्, ऋत्विज् एव तस्य जकारान्त अस्ति, ऋत्विग् ऋत्विजौ ऋत्विजः इति भवति. तथैव पन्थाः इति, पतिमिति शब्दः विशेषमस्ति, तत् तत् रूपं किञ्चित् भिन्नमस्ति. तत् सामान्यतः तत्र पतिमिति नकारान्त अस्ति, पन्था इति प्रथमाविभक्ति, पन्थाः इति प्रथमाविभक्ति एकवचनं, यत् द्वि बहुवचने इव श्रूयते. पन्थाः इत्युक्ते पतिन् इत्यस्य पतिन् इत्यस्य प्रथमाविभक्तिरूपम् अस्ति पन्थाः. अग्रे द्विवचनं पन्थानौ पन्थानः इति भवति इति वयं दृष्टवन्तः तत्र. इदानीम् अस्माकं अतः नकारान्त पश्यतु, गुणिन् इति विद्यार्थी, वयं सर्वे जानन्ति विद्यार्थिन् सह अधिकारिन् इति, अत्र गुणिन् गुणी गुणिनौ गुणिनः, विद्यार्थी विद्यार्थिनौ विद्यार्थिनः इति भवति. तत्र सर्वे जानन्ति विद्यार्थी इत्यस्य रूपाणि, अतः एते अत्र इनन्त इनन्तपदमस्ति, तत्र इनन्त इन् इति कश्चन मतुप् इत्युक्ते अस्य अस्ति इति अर्थे, तादृश अस्ति अस्य अथवा अस्मिन् अस्ति इति, तस्मिन् अर्थे भवति. विद्यार्थी अधिकारी अधिकारिन् अधिकारी अधिकारिणौ अधिकारिणः इति भवति. तत्र नकारान्त इनन्तशब्दाः इति वदामः इति अस्ति. अस्तु अग्रे गच्छामः. इदानीं तत्र हलन्तस्त्रीलिङ्गनपुंसकलिङ्गशब्दानां रूपाणि वयं जानीमः. एकवारं ततः पूर्वं एकवारं तत्र पुस्तके पुटसङ्ख्या अस्ति 14, तत्र पश्यतु एकवारं 14 पुटसङ्ख्या अस्ति तत्र. वत्सला भगिनी पठति वा प्रथम?
पठतः पठत अवगच्छत अवगच्छत च प्रातिपदिकम् एकवचनं द्विवचनं बहुवचनम् अन्तः. वाच् श्रीलिङ्गः, वाक् वाचौ वाचः, चकारान्तः. सरित् श्रीलिङ्गं, सरित् सरितौ सरितः, चकारान्तः. तदित् श्रीलिङ्गं, तदित् तदितौ तदितः, चकारान्तः. विद्युत् श्रीलिङ्गं, विद्युत् विद्युतौ विद्युतः.
तावदेव तावदेव तावदेव. पश्यतु अत्र वाच् इति स्त्रीलिङ्गपदमस्ति, पश्यतु सु औजस् इति, तत्र हलन्तप्रातिक अस्ति चेत् तस्य सुप्रत्ययस्य लोपः भवति सर्वत्र. विसर्गः कुत्रापि न दृष्टवन्तः खलु, प्रथमाविभक्तौ विसर्गः कुत्रापि न दृष्टवन्तः. मनस् इदानीं तत्र प्रातिपदिके सकारः अस्ति चेत् तद् विसर्गः भवति, परन्तु पदा सुप्रत्ययस्य रामः इत्यस्य विसर्गः अस्ति, तत् सु इति सकारान्त प्रातिप प्रथमाविभक्ति प्रथमाविभक्तेः प्रत्ययस्य विसर्गः भवति रामः इति. परन्तु तत्र हलन्त प्रातिपदिकानां कुत्रापि किं तत्र प्रथमाविभक्तौ तस्य सुप्रत्ययस्य लोपः भवति, अतः तत् कुत्रापि वयं विसर्गं द्रष्टुं न शक्नुमः. वाच् इति वाचः इति तत्र पश्यतु वाच् इति अस्ति, वाच् एव सु इति भवति, वाच् एव सु इति अस्ति. इदानीं सकारस्य विसर्गः भवेत् परं न भवति, तत्र हलन्तप्रातिपदिकस्य विसर्ग प्रथमाविभक्तिरू प्रत्ययस्य लोपः भवति इति अस्ति. अतः वाच् इत्यस्य वाक् इति भवति. चकारस्य अहम् उक्तवान् पूर्वं चकारान्तः अस्ति चेत् किं भवति, तत्र ककारान्तः भवति, कवर्गीयः भवति, अतः वाक् इत्यस्य वाक् इति भवति। अतः अत्र एक एव रूपमस्ति, वाग् अपि भवितुमर्हति, वा अवसाने इत्यन्य तदा अवसाने तत्र तत्र वाग् अपि भवितुमर्हति, परन्तु सामान्यतः तद् प्रथम वर्गीयप्रथमव्यञ्जनम् एव पश्यामः। वाक् वाक् वाचौ इति सु सु इत्यस्य लोपः भवति, औ इति अस्ति सु औजस् इति मूलप्रत्यय सुबन्तस्य, औ इति वाचयोगौ वाचौ केवलं वर्णमेलनं, वाचयोगौ वाचौ, वाचयोग जस् इति अस्ति तत्र अह इति भवति, तत्र सु औ जस् इति अत्र अह अस् इति भवति, तत्र अह इति विभक्ति प्रत्यय वाचयोगः वाचः इति भवति, अतः चकारान्त अस्ति। इदानीं सरित् तकारान्त अस्ति खलु, तत्र सरित् सरितौ सरितः, पश्यतु एतस्य पुल्लिङ्गस्य अपि पश्यतु, तत्र सरि तकारान्त भवतु जकारान्त भवतु पुल्लिङ्गवत् एव अस्ति खलु, सरित् सरितौ सरितः इति स्त्रीलिङ्गे अस्ति, सरित् तडित् विद्युत् सम्पत् इति तकारान्त स्त्रीलिङ्गपदानि एतानि, तेषां रूपाणि बहु सुलभमस्ति, यतः वणिग् इत्यस्य वयं जानीमः वणिक् वणिजौ वणिजः, सरित् सरितौ सरितः अथवा सुहृद् सुहृदौ सुहृदः इति तादृश सरित् सरितौ सरितः इति भवति, तत्र किमपि भेदः एव नास्ति, तत्र अन्येषु अपि अन्येषु विभक्ति अन्यविभक्तिरूपाणि अन्यानि विभक्तिरूपाणि अपि तत्रापि किमपि परिवर्तनं न भवति, पुल्लिङ्गवत् एव भवति, अतः पुल्लिङ्गे स्त्रीलिङ्गे किमपि परिवर्तनं न भवति, अतः अतः उक्तवान् हलन्तप्रातिपदिकानां तत् रूपाणि अधीतुं तत्र अध्ययनस्य मार्गः सरलः एव अस्ति, अतः सरित् सरितौ सरितः, तडित् तडितौ तडितः, विद्युत् विद्युतौ विद्युतः, यथा वणिज् वणिजौ वणिजः इति तदेव अस्ति, अतः किमपि क्लेशः नास्ति, अतः तत्स्त्रीलिङ्गस्य वयं जानीमः। इदानीम् अग्रे पश्यामः, धन्यवादः भगिनि, अग्रे इदानीं यशोदा भगिनि अग्रिमः।
आम् जगत् नपुंसकलिङ्ग जगत् जगति जगन्ति अन्तः जगन्ति तकारान्तः तकारान्त नपुंसकलिङ्ग विद्वत् नपुंसकलिङ्ग विद्वत् वियत् वियत् नपुंसकलिङ्ग वियत् वियति वियन्ति देन् विपद् श्रीलिङ्ग विपद् वियति वियति विद्वत् विद्यत् विपदौ विपदः तकारान्त आपद् श्रीलिङ्गे आपद्
एकवारं तावदेव तावदेव पश्यामः इदानीं पश्यतु अस्य विशेषणं पश्यतु तत्र तडित् तडितौ तडितः इदानीं जगत् एव जगत् जगतौ जगतः इति भवति वा इति प्रश्नः परन्तु किमर्थं न भवति किमर्थमिति जगत् इति नपुंसकलिङ्ग अस्ति अतः नपुंसकलिङ्गे किं भवति तत्र प्रथम द्वितीयविभक्ति पश्यतु ई इति भवति औ इति न भवति ई इति भवति सर्वत्र मनस् मनः मनसि मनांसि खलु तत् सर्वत्र भवति तत्र अतः तत्र जगत् जगति जगन्ति
जगन्ति
नुमागम बहुवचने नकारः श्रूयते सर्वत्र पश्यतु मनांसि तत्र वियत् इति वियत् इत्युक्ते आकाशः अस्ति वियत् वियति वियन्ति वियन्ति इति तत्र तकारान्त नपुंसकलिङ्ग अस्ति चेत् तादृश वियत् आकाशः आकाशः इति वियत् इति आकाशः वियत् अन्तरिक्षः इति वदामः अन्तरिक्षः
तडित् पदस्य अर्थः
तडित् 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 इत्युक्ते तडित् न जाने तडित् इत्युक्ते लैट्निङ्ग् तडित् तडित् लैट्निङ्ग् लैट्निङ्ग् अस्ति खलु तत्र
लैट्निङ्ग्
तत्र वर्षाकाले वृष्टिकाले भवति खलु लैट्निङ्ग् दट् थण्ड् किं वदामः कोऽपि अथवा किं वदामः हिन्दीभाषायां बिजिलि बिजिलि जानाति वा ज्ञातवन्तः खलु लैट्निङ्ग् हा बिजिलि बिजिलि तत्
तत्र धन्यवादः
अस्तु अतः तत्र इदानीं पश्यतु अत्र सर्वत्र बहुवचने किम् अस्ति मम नम नकारः भवति नकारः तत्र सामान्यतः तत्र नपुस्तकलिङ्गे नकारः भवति पयस् इति अस्ति पश्यतु पयस् इति मिल्क् अस्ति पयः पयसि तत्र किं भवति पयांसि इति भवति तत्र पयांसि इति तत्र पश्यतु पश्यतु तत्रापि नकारः अस्ति अनन्तरं अनुस्वारः भवति तत्र सन्धिभूत्वा तत्र भवति पर अत्र किमर्थं तत्र वियन्ति यतः अन्ते नकारस्य अनन्तरं तकारः अस्ति अतः नकार एव मूले नकार एव पयांसि मनांसि इत्यस्मिन् अपि नकारः एव परन्तु सकारस्य अनन्तरं किं भवति अतः अनुस्वारः भवति किमस्ति अत्र नश्च नकारमकारस्य झलि परे इत्युक्ते झलि झल् वर्णे परे इत्युक्ते हल् वर्ण झल् इत्युक्ते वर्गप्रथम द्वितीय चतुर्थ वर्णस्य स्थितिः तत्र अस्ति चेत् तत्र किं भवति अनुस्वारः भवति अतः इदानीं जगन्ति अनन्तरं किं भवति अत्र तकारः अस्ति चेत् अनुस्वारस्य ऐ परसवर्णः इति तकार्तवर्गीय अन्तिमवर्णः जगन्ति वियन्ति अतः रूपं नपुंसकलिङ्गे किञ्चित् भिन्नमस्ति अनन्तरं सामान्यमेव अस्ति रूपाणि अनन्तरं तत्र केवलं तत्र प्रथमविभक्तिरूपाणि एव तत्र जगत् जगति जग जगन्ति जगत् जगति जग पश्यतु द्वितीयविभक्तिरूपाणि सर्वत्र प्रथमा द्वितीया नपुंसकलिङ्गस्य समानमेव भवति खलु अतः नपुंसकलिङ्गस्य वयम् एकव प्रथमविभक्तिरूपाणि जानीमः चेत् द्वितीयविभक्तिरूपाणि ज्ञातवन्तः एव तत् किमर्थमित्युक्ते रूपाणि समानानि खलु फलं फले फलानि इत्युक्त्वा जगत् जगति जगन्ति सारि जगन्ति तदेव अस्ति तत्र द्वितीयविभक्तौ अपि तदेव अस्ति अनन्तरं तृतीय चतुर्थ पञ्चमी षष्टि सप्तमी तत्र स्त्रीलिङ्गे भवत् पुल्लिङ्गे भवत् नपुंसकलिङ्गे भवत् सामान्यरूपाणि एव भवति अग्रे पश्यामः इदानीम् अस्माकं सोपानरूपेण गच्छामः प्रथमाविभक्तिरूपाणि जानीमः अनन्तरं द्वितीयविभक्ति अपि पश्यामः धन्यवादः भगिनि अग्रे हा अग्रे शङ्करप्रसाद् महोदय
नमस्ते
हा नमस्ते
विपद्
विपद्
विपद् स्त्रीलिङ्गं विपद् अथवा विपत् विपदौ विपदः दकारान्तः आपत् स्त्रीलिङ्गः आपद् अथवा आपत् आपदौ आपदः दकारान्तः सम्पद् स्त्रीलिङ्गः सम्पद् अथवा सम्पत् सम्पदौ सम्पदः दकारान्तः परिषद् स्त्रीलिङ्गः परिषद् अथवा परिषत् परिषदौ परिषदः दकारान्तः
पश्यतु अत्र सर्वत्र पश्यतु अत्र तकारान्त एव अस्ति तत्र किमपि नास्ति तत्र केवलं तत्र किं भवति आपद् इत्यस्य दकारान्त अस्ति तत्र उक्तवान् तत्र आपत् अपि भवितुमर्हति आपद् अपि भवितुमर्हति अतः वाक् इत्युक्ते वाग् अपि भवितुमर्हति वाक् अपि भवितुम् अर्थापि अत्रैव दत्तमस्ति अहं किमर्थम् अहं न जाने अत्र वाक् इति वाग् अपि भवितुमर्हति सरित् सरित् इति भवितुमर्हति सरित् एव अस्ति अस्तु आपद् आपद् सम्पद् इति तत्र सरित् इव भवति किमपि परिषद् इति जानीमः खलु आपद् विपद् इति वयं जानीमः खलु अर्थः सङ्कष्टः कष्टः इति आपद् विपत् इति अस्ति खलु तत्र सङ्कष्टः इति तत्र कष्टम् अस्तु इदानीं नकारान्त इदानीं तत्र नपुस्तकलिङ्ग इदानीं तत्र राधिका भगिनी
आं महोदय नपुंसकलिङ्ग
नामन् इति अस्ति अत्र नामन् इति अस्ति अत्र तस्य नपुंसकलिङ्गरूपमस्ति अत्र नकार न यतः कर्माणि इति तथैव अत्र नामनी नामानि द्वितीयविभक्तिरूपं द्विवचने नाम्नि इत्यपि भवितुमर्हति. तत्र विकल्पेन अत्र दत्तं नास्ति. नाम नामनि नामानि अथवा नाम्नि नाम नाम्नि नामानि इति भवति. अत्र तत्र तादृश अस्ति नकारान्त अस्ति चेत्. अग्रे
कर्म कर्मणि कर्मन् कर्म कर्मणि कर्माणि
अत्रापि अत्रापि तत्र किं पश्यतु तत्र सर्वत्र द्विवचने किं भवति प्रथमा द्वितीया औस्थाने ई इति आदेशः भवति. औस्थाने ई इति आदेशः भवति इति तत्र एकः एकं सूत्रमस्ति तत्र पाणिनिसु केवलं तत्र तत् किमपि तत् साधयितुं तत्र किं भवति नपुंसकात् नपुंसकात् जश्चतोः शी इति तत्र क्षम्यता शी इति औ औ इत्यस्य शी इति भवति इति अस्ति. स्त्रीलिङ्गे अपि भवति अपि च पुल्लि नपुंसकलिङ्गे अपि भवति. अत्र नपुंसकलिङ्गे द्विवचने ई इति आदेशः औ स्थाने. अतः सर्वत्र पश्यतु जगती इति खलु नामनी रियदी इति द्विवचने सर्वत्र. अतः कर्मणि मनसि मनः मनसि इति भवति. अतः तत्र सर्वत्र हलन्त अस्ति चेत् तत्र किं भवति तत्र तत्र दीर्घ ईकारः भवति दीर्घ ईकार औ स्थाने औ इति प्रत्ययस्य स्थाने ई इति प्रत्ययः आगच्छति. अतः अतः ई इति भवति नाम नामनि नामानि कर्म कर्मणि कर्माणि. अत्र नकारस्य लोपः भवति नामन् कर्मन् पश्यतु आत्मन् इति पुल्लिङ्गस्य किं भवति आत्मा इति भवति पुल्लिङ्ग आत्मा. तत्र भवान् तत्र आत्मन् इति इदानीं तत्र चेत् तत्र भवान् इति भवति तत्र आत्मा सारि भवति इति सकारान्तः अस्ति. परन्तु ना आत्मा आत्मन् इति पुल्लिङ्गशब्दः आत्मा इति भवति. तत्र पुल्लिङ्गे दीर्घत्वं भवति नकार लोपः भवति अनन्तरं दीर्घः भवति तस्य यत् पूर्वमस्ति तस्य अच् तद् दीर्घः भवति. परन्तु नपुंसकलिङ्गे सर्वत्र तस्य लोपः भवति कर्मन् नकारस्य लोपः भवति नलोपप्रातिपदिकान्तस्य इत्यनेन रूपेण तत्र नामन् इत्यत्र नकारस्य लोपः भवति. अस्तु इदानीं वयं जानीमः तत्र नाम नामनि नामानि कर्म कर्मणि कर्माणि अत्र एते एतौ द्वौ एते सर् एते द्वे नपुंसकलिङ्ग लिङ्गशब् पदौ पदे. अस्तु अग्रे धन्यवादः इदानीं
धन्यवादः
धन्यवादः भगिनि. इदानीं तत्र निरञ्जना भगिनि
श्रूयते वा?
श्रूयते श्रूयते.
दिश् स्त्रीलिङ्गे अस्ति शकारान्त दिक् दिशौ दिशः
तत्र दिश् तत्र शकारस्य ककारः भवति तत्र शकारः शकारः भवति क्षम्यतां ककारः भवति इति प्रथमाविभक्तिरूपं. परन्तु अन्यत्र तथैव तिष्ठति किमपि परिवर्तनं यथा चोः कुः इत्यनेन तत्र शकारस्य प्रायः एतत्तु पदान्ते अस्ति खलु. अत्र प्रायः एतत्तु वयं जानीमः खलु शकारस्य शकारस्य षडोः कहसि इत्यनेन तत्र भवति. अनन्तरम् अनन्तरं तत्र किमपि अत्र चषांशः इति खलु तत्र शकार अस्ति प्रायः. अस्तु इदानीं तत्र दिश् इत्यस्य दिक् इति भवति दिक् दिशौ दिशः स्त्रीलिङ्गे अस्ति पश्यतु रूपाणि समानमेव पुल्लिङ्गे अपि भवतु स्त्रीलिङ्गे अपि परन्तु तत्र अष्टामि ज्ञातव्यमस्ति किमर्थमिति वाक्येषु तत्र इदानीं कृदन्तपदानां कृदन्तप्रत्ययं कृदन्तपदं स्वीकृत्य कृदन्तक्रियापदं स्वीकुर्मः चेत् तत्र लिङ्गस्य ज्ञानं भवेत् अस्माकं. किमर्थं तत्र कृदन्त तत्र किं भवति, ते कर्मस्य अथवा कर्तुः तद् विशेषणरूपेण भवति किल, अतः तत्र तादृशलिङ्गस्य लिङ्गज्ञानं भवेत् तत्र. अतः दिक् दिशौ दिशः इति तत्र स्त्रीलिङ्गे अस्ति. कथं वा ज्ञातुं शक्नुमः, एतत् पठित्वा एव ज्ञातुं शक्नुमः, कुत्रापि नास्ति तत्र. अस्ति पाणिनीय तत्र नामलिङ्गानुशासनम् इति तत्र अस्ति, लिङ्गानुशासनम् इति अस्ति, अथवा अमरकोश तत्र स्त्रीलिङ्ग पुल्लिङ्ग अस्ति वा इति तत्र दत्तमस्ति. अतः कथासु कथासु अथवा ग्रन्थेषु यदा पठेम तत्र एव अस्माकं ज्ञानं भवति, अथवा क्रियापदं किमस्ति अथवा कृदन्त अतः विशेषणं दृष्ट्वा एव विशेषलिङ्गं ज्ञातुं शक्नुमः. तादृश एकमस्ति एक तत्तु तदपि तु समीचीनं भवति. वयं विशेषणस्य लिङ्गं ज्ञातुं शक्नुमः कुत्रचित्, अतः तत्र तत्र यदा विशेषणस्य लिङ्गं ज्ञातुं प्रभवामः तदा वयं ज्ञातुं शक्नुमः एतत् विशेषस्य लिङ्गम् अपि पुल्लिङ्गे वा त्रिलिङ्गे इति. किमर्थम् इत्युक्ते विशेषणं विशेषस्य लिङ्गम् अनुसृत्य एव भवति खलु, अतः कर्तुं शक्नुमः. ततः अस्तु अग्रे अग्रिमः.
आशिष सकारान्त त्रिलिङ्गि अस्ति. आशीः आशिषौ आशिषः
विशेष आशीः इति भवति तत्र
आशीः चकारान्त अस्ति. धनुष नपुंसकलिङ्गि अस्ति. धनुः धनुषी धनुषि भवति.
अत्र पश्यतु धनु धनुषि धनुस् इति अस्ति, धनुस् इति अस्ति, धनुस् इति तदनन्तरं धनुस् इत्यस्य विसर्गः अत्र पश्यति, वयं पश्यामः धनुः इति तत्र सुप् सुप् प्रत्ययस्य विसर्गः नास्ति तत्र, तत्तु प्रातिपदिकस्य एव. धनुस् इत्यस्य अन्ते सकारास्ति, पदान्ते सकारास्ति चेत् विसर्गः भवति धनुः इति. राम इति प्रातिपदिकमस्ति, अत्र रामः इत्यस्मिन् रामस् इति नास्ति, रामयोगस् इति, अतः तत् इति प्राति विभक्तिप्रत्ययः अस्ति. इदानीं धनुस् योगस् इत्यस्मिन् सकारस्य लोपः भवति, हलन्तप्रातिपदिकानां सुप्रत्यय प्रथमविभक्तिरूपं प्रथमप्रत्ययस्य लोपः भवति, प्रथमविभक्तिरूपं प्रथम विभक्तिप्रत्ययलोपः भवति, तर्हि धनुस् एव अवशिष्यते. धनुस् इति पदमस्ति, अन्ते सकारः अस्ति चेत् पदान्ते सकारः अस्ति चेत् तत्र विसर्गः भवति इति नियमः अस्ति. अतः धनुः धनुषी पश्यतु धनुस् योग ई इति धनुषी इति भवति. इदानीं सकारः पूर्वम् उकारः अस्ति चेत् किं भवति, तत्र शकारः भवति. तत्र वयं जानीमः खलु तत्र किमस्ति, तत्र कः किं सूत्रमस्ति जानाति वा खलु, न तद् नास्ति खलु, तत्र षत्वादेशः भवति खलु, तत्र सर्वत्र किमस्ति अत्र इण्कोः आदेशप्रत्ययोः इत्यनेन भवति, इण्कोः आदेशप्रत्ययोः इत्यनेन इण् वर्ण इण् इत्युक्ते सकारात् पूर्वम् इदानीम् इण् वर्णः इत्युक्ते ई लण् इत्यस्मिन् तत्र अकारं विहाय सर्वे स्वरवर्णाः अपि च स्वरे स्वरे स्वराः अपि च तत्र ह य वर ल एते सन्ति चेत् तत्र सकारस्य षकारः भवति इति अस्ति. तत्र कस्य इदानीं तादृशः अस्ति. इदानीम् एतत् प्रातिपदिकस्य न इदानीं तत्र प्रत्ययस्य नास्ति, अव्ययस्य नास्ति, इदानीं तत्र विशेषरूपेण तत्र भवति. इदानीं तत्र तस्य कृते विशेषसूत्रमस्ति, तत्र बहूनि सूत्राणि सन्ति, सत्त्वविधायकसूत्राणि सन्ति, कुत्र कुत्र भवति, एकमस्ति इण्कोः इति एकमेव अस्ति अत्र प्रायः तत्र 20+ सूत्राणि सन्ति, अतः धनुषि अनेनैव भवति धनुषी धनूंषि, अत्र पश्यतु अत्रापि नुमागमः भवति बहु नुमागमः इति पश्यतु धनूंषि, तत् अनुस्वारः अस्ति खलु, अत् मूले नकारः धनुयोग नकारः तत्र धनूंषि इति भवति अत्र यथा वियन्ति इत्यत्र इकारः भवति खलु तत्र धनूंषि इत्यस्मिन् तत्र नुमागमः भवति, परन्तु कुत्रचित् तत्र दीर्घ मनसि मनांसि इति भवति खलु, ततः नाम नामानि इति भवति खलु, नकारात् पूर्वं यद् अस्ति तस्य यदि नकारः भवति नकारस्य किमस्ति आदेशः भवति चेत् तस्य पूर्वस्थितस्य वर्णस्य दीर्घत्वं भवति, अतः एव नामयोग इत्यस्य नामानि इति भवति खलु, अत्रापि नकारः नामानि इति भवति, क्षम्यतां तत्र पयस् इति पयांसि इति भवति खलु, पयांसि हा तत्र एव तत्रापि दीर्घत्वं भवति, अतः धनुषि च धनूंषि इति भवति, अतः धनुः धनुषि धनूंषि तथैव अग्रिमः अग्रिमः पठतु
चक्षुष नपुंसकलिङ्गि शकारान्तस्य चक्षुः चक्षुषि चक्षुंषि भवति
चक्षुंषि धनु इव भवति धनुष् इव भवति अतः शकारान्तपदमस्ति अतः धनुः इति तत्र धनुः इति अस्माकं भ्रमः भवेत् धनुः इति उकारान्तप्रातिपदिकमस्ति वा इति तद् नास्ति तत्र बहु तत्र सर्वदा बहुवचनरूपं द्रष्टव्यं द्रष्टव्यं तत्र किं भवति तत्र अन्तिम हल्वर्णः कः इति दृष्ट्वा ऊहां कर्तुं शक्नुमः अथवा धनुष् इति अथवा तथैव चक्षुषेव भवति. धन्यवादः भगिनि. द्वारकनाथ महोदय अग्रे.
महोदय
नेत्रं नेत्रे नेत्राणि खलु तत्र नयनं नयने नयनानि. द्वारकनाथ महोदय पठितुमिच्छति वा? म्यूट् मध्ये अस्ति भवान्. हा हा महोदय.
चक्षुषि चक्षुंषि मनः मनसि मनांसि मनस्
मनस्
सरस् नपुंसकलिङ्गशब्दः सकारान्तः सरः सरसि सरांसि श्रोतः श्रोतसि श्रोतांसि
सर्वत्र पश्यतु तत्र सर्वत्र सुलभमस्ति धनुः इति यथा अस्ति धनुषिव एव अस्ति खलु तत्र धनुष् चक्षुश्च मनस् सरस् श्रोतस् इत्यत्र रूपाणि समानानि एव तत्र किं भवति बहुवचने किं भवति नुमागमः भवति नकारः भवति नकारस्य अनुस्वारः भवति सन्धि भूत्वा धनूंषि चक्षुंषि मनांसि सरांसि श्रोतांसि यत्र तत् तादृशदीर्घत्वं भवति यत् वयं ज्ञातुं शक्नुमः एतत्तु नपुंसकलिङ्गमस्ति इति अतः नपुंसकलिङ्गस्य रूपाणि तत्र सर्वत्र बहुवचने नुमागमः भवति अपि च द्विवचने ई इति भवति अतः पश्यतु अन्यत्र सम्पद् इति तादृशं नास्ति इदानीं तत्र सम्पद् सम्पदौ सम्पदः श्रोत इति तत्र श्रोतः श्रोतसौ श्रोतसा इति न भवति अत्र तत्र औ इत्यस्य स्थाने बहु द्विवचने औ इत्यस्य स्थाने इ इति आदेशः भवति तत्रापि अपि च जस् इत्यस्य स्थाने तत् षि इति आदे इ इति आदे ह्रस्व इ भवति बहुवचने ह्रस्व इकारादेशः भवति द्विवचने दीर्घ इकारादेशः भवति नपुंसकलिङ्गे तदेव अस्ति तत् ज्ञातव्यमस्ति तदेव अस्ति अन्यत्र सर्वत्र रूपाणि द्वितीया अस्ति द्वितीया वयं नपुंसकलिङ्गस्य यत् प्रथमलिङ्ग प्रथम विभक्तिरूपाणि तदेव द्वितीयविभक्ति परन्तु अनन्तरं तृतीय चतुर्थ पञ्चमी तत्र सर्वाणि सामान्यतः तत्र त्रिषु लिङ्गेषु समानरूपाणि एव हलन्तपदानां कुत्रचित् भवति, कुत्रचित् विशेषपदं विशेष विशेषानि पदानि सन्ति, तत्र किञ्चित् भिन्नः रूपाणि भिन्नानि भवन्ति. तत् पश्यामः. इदानीं सामान्य हलन्त प्रातिपदिकरूपाणि जानीमः इति वयं जानीमः. इदानीं तत्र रूपाणि वयं ज्ञातवन्तः एकवारम्. इदानीं कथां प्रति गच्छेम. तत्र कथा नास्ति, एतत् एकः लघुलेखनः अस्ति, तत् पठेम. धन्यवादः महोदय. इदानीं तत्र वत्सला भगिनी प्रथमवाक्यद्वयं पठतु.
अभ्यासः रिक्तस्थानि पूरयत.
न भगिनी, तत्र अहं वर्षं निगृह्णामि इति खलु, निगृह्णामि इति तत्र प्रथम इदानीं पुटसङ्ख्या त्रयोदशः.
एकं पाठम् उच्चैः पठत अवगच्छत च. हलन्तश्रीलिङ्ग श्रीलिङ्ग नपुंसकलिङ्गशब्दाः प्रथमा विभक्तिः. ग्रीष्मकालस्य अनन्तरं वर्षाकालः आगच्छति. आकाशे सूर्यम् आच्छाद्य मेघमालाः इतस्ततः विहरन्ति. आचार्य मीन्स् सारी
अग्रिमवाक्य.
तदा कृषकाणां मनांसि सन्तुष्टानि भवन्ति. यदा
तत्र तावदेव तावदेव अत्र अत्र प्रातिपदिकं किम् अस्ति, हलन्तप्रातिपदिकम् अस्ति वा? हलन्त
मनांसि
मनांसि
हा मनसि इत्यस्य मनांसि इति तत्र तत्र पश्यतु मनांसि तत्र मनांसि इति अस्ति अत्र अत्र कथं वयं ज्ञातुं शक्नुमः तत्र मनांसि इति नपुंसकलिङ्गे अस्ति इति? तत्र पश्यतु संहृष्टानि भवन्ति इति अस्ति खलु. अतः मनांसि इत्यस्य तत्र विशेषणमस्ति संहृष्टानि इति. अतः विशेषमस्ति मनांसि, संहृष्टानि इति विशेषणमस्ति. अतः विशेषणं वयं जानीमः सामान्यतः आनि फलानि फलानि इति वयं जानीमः तद् नपुंसकलिङ्गमस्ति इति. अतः मन तत् विशेषमपि नपुंसकलिङ्गम् इति तादृश ऊहं कर्तुं शक्नुमः कुत्रचित्. सर्वत्र न भवति. पश्यतु दिश् इत्यस्य दिक् इति दिक् इति पुल्लिङ्गे अस्ति वा स्त्रीलिङ्गे अस्ति वा इति वयं ज्ञातुं न शक्नुमः सामान्यतः. परन्तु इदानीं तस्य पार्श्वे कोऽपि विशेषणमस्ति चेत् तत् दृष्ट्वा वयम् ऊहां कर्तुं शक्नुमः. इदानीं वर्षकालः आगच्छति, आकाशे सूर्यम् आच्छाद्य मेघमालाः इतस्ततः विहरन्ति. इतस्ततः इत्युक्ते इतः ततः इति इतस्ततः इति तत्र सकारस्य तत्र विसर्गस्य सकारः भवति. इतः मेघ विहरन्ति मेघमालाः इत्युक्ते मेघः मेघानां माला इति मेघमाला इति अत्र
सुबन्तं न वा
सुबन्तमेव खलु विहरन्ति. इदानीं पश्यतु विहरन्ति क्रियापदमस्ति. के विहरन्ति? मेघमालाः विहरन्ति इति अस्ति खलु. आच्छाद्य चादने आच्छाद्य इति कवरिङ्ग् सूर्यम् आच्छाद्य आकाशे इति अत्र इति अस्ति. तत् वयं जानीमः आकाशे इति तत्र सप्तमी अस्ति. कुत्र इति अत्र कारकसप्तमी अस्ति इति अस्ति खलु. आच्छाद्य इति क्रियापदमस्ति. तत्र क्रियापदमस्ति आच्छाद्य इत्यस्य क्रियापदस्य कर्मपदमस्ति सूर्यं इति अस्ति. मेघमाला विहरन्ति इति तत्र अस्तु. अग्रे धन्यवादः भगिनि. अग्रे इदानीं यशोदा भगिनि अग्रे.
तदा कृषकार वदा वृष्टिः भवति. तदा भगवतः आशीषः एव जलबिन्दुवः भुवि निपतन्ति.
पश्यतु जलबिन्दवः निपतन्ति इति अर्थः तत्र निपतन्ति जलबिन्दवः निपतन्ति इत्यर्थः के निपतन्ति अथवा कः निपतन् जलबिन्दवः कीदृशः तत्र कीदृशः जलबिन्दवः आशिषः इव भगवतः आशिषः इव इति आशिष आशीर्वाद आशिष आशीः इति आशिष् इति स्त्रीलिङ्गपदमस्ति अतः तत्र आशीः आशिषौ आशिषः इति वयं ज्ञातवन्तः स्त्रीलिङ्गे अस्ति अत्र वयं ज्ञातुं न शक्नुमः आशिषः इति तस्य लिङ्गं किम् इति अत्र किमपि नास्ति खलु विशेषणम् इति किमपि नास्ति भगवतः इति तत्र भगवतः भगवान् इति अत्र भगवत् इति अस्ति भवत् इति अस्ति भगवतः भवान् भवन्तौ भवन्तः भगवान् भगवन्त भगव तत्र भगवन्तः इति भगवतः इति भगवान् इत्यस्य बहु तत्र षष्ठी अस्ति कस्य भगवतः इति देवस्य यदा तदा यदा वृष्टिः भवति तदा यदा तदा इति सर्वत्र कदा इति यदा तदा इति सर्वत्र युगलं भवति पदद्वयं भवति यदा इति कुर्मः तत् तदा सामान्यतः तदा एव भवति एव अस्तु अग्रे भुवि अस्ति खलु भुवि इति खलु भुवि इति तत्र भूः इति अत्र भुवि इत्युक्ते पृथिव्यामिति तत्र भुवि इति भुवि इत्युक्ते पृथिवी पृथिवी इति भू इति भुवि निपतन्ति
भुवि सप्तमी
हा सप्तमी अस्ति कुत्र निपतन्ति सप्तमी अस्ति भू इति भुवि
वियन्ति ताडितः प्रकाशन्ते
ताडितः वा
तडितः
तडितः ताडितः इति नास्ति ताडितः इत्युक्ते तत्र ताडनं भवति खलु प्रायः तडि ताडित्य भवति प्रायः ताड इत्यनेनैव अस्य मूला प्रायः तदेव भवेत् चिन्तयामि तडित् इत्युक्ते वयं जानीमः इदानीं च खलु
तडित्
इति लैटिङ्ग् इति तडित्
वियति तडितः प्रकाशन्ते
हा तस्य पश्यतु तड् इति ताडयति इति तडित् इत्युक्ते ताडयति तड् इति ताडयति इति तदेव तड् तड् इति इत्यनेनैव ताडयति तड् इत्यपि तडि टु हिट् इति तस्मात् धातोः एव तडित् इति भवति तडित् वियति इति पश्यतु वियति इति अपि कुत्र प्रकाशन्ते तडितः कुत्र प्रकाशन्ते
वियति
इत्युक्ते कुत्र वियति इत्युक्ते आकाशे आकाशे तडितः प्रकाशन्ते अतः सर्वदा आकाशस्य वयम् एकं नूतनशब्दं ज्ञातवन्तः वियति 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 अत्र तत्र इदानीं वियत् इति पदं स्वीकृत्य अस्माकं तत्र मनसि तस्य दृढं तस्य दृढता कर्तुं किं करणीयं वाक्यं रचनीयं वियति पक्षिणः डयन्ते इति भवति खलु वियति विमानः डयते इति वियति आकाशे आकाशे सर्वदा आकाशे आकाशे सम्यक्
दृश्यते
वियति वियति चन्द्रः प्रकाशते
प्रकाशते
खलु अग्रे
वियति पुल्लिङ्गपदं वा
वियति
वियति नपुंसकलिङ्ग
न सम्पत् इति सम्पत् वियत्
सम्पत्
श्रीलिङ्गे श्रीलिङ्ग अस्ति अत्र पश्यतु अत्र वयं न ज्ञातुं शक्नुमः किमर्थम् पुल्लिङ्ग अथवा त्रिलिङ्ग इति किमर्थम् इति चेत् पुल्लिङ्गस्य त्रिलिङ्गस्य रूपाणि समानानि एव अत्र अतः किञ्चित् अतः मनसि भवेत् तत्र दृष्ट्वा एव ज्ञातुं शक्नुमः रूपं दृष्ट्वा वयं ज्ञातुं न शक्नुमः किमर्थं पुल्लिङ्ग अस्ति वा श्रीलिङ्गे किमर्थम् इति चेत् रूपसमानमेव अस्ति. पुल्लिङ्गस्य रूपमपि तकारान्तपुल्लिङ्गस्य अपि च तकारान्तस्त्रीलिङ्गस्य रूपं समानमेव. अतः ज्ञातुं न शक्नुमः. अतः तत् अतः वियत् इति स्त्रीलिङ्गे अस्ति. क्षम्यतां वियत् इति वियति वियन्ति खलु. क्षम्यतां वियत् इति नपुंसकलिङ्गे अस्ति खलु. तर्हि तर्हि किं भवति तत्र वियत् वियत् वियतौ वियतः इति न भवति. क्षम्यतां वियत् क्षम्यताम् अतः तत्र क्षम्यतां तत्र अतः तत्र बहुवचने अस्ति चेत् भवति. अत्र आकाशस्य बहुवचनं न भवति खलु. एकवचन आकाश एक एव अस्ति खलु. अतः अत्र आकाशाः इति वक्तुं न शक्नुमः. तत्र कुत्रापि वियन्ति इत्यस्य रूपं ज्ञातुं न शक्नुमः. अतः पुल्लिङ्ग कथासु एव एकवचनरूपमेव पश्यामः. अतः तत्रापि लिङ्गस्य ज्ञानं भवेत्. अतः वियत् इत्युक्ते नपुंसकलिङ्गात् इति कृत्वा तत्र वियत् वियति विय वियन्ति इति भवति. क्षम्यताम्. अस्तु.
मेघा नितरां गर्जन्ति. दिक्षु दिक्षु विदिक्षु विदिक्षु उत्पन्नं उत्पन्नं प्रकाशम् अनुभवै.
पुनः वदतु. उत्पन्नं प्रकाशं वा
अनुभवैकवेद्यं भवति. दिक्षुः
दिक्षु विदिक्षु इत्युक्ते भिन्नभिन्न दिक्षु इति भिन्नासु दिक्षु इति. पश्यतु भिन्नभिन्न दिक् भिन्नासु दिक्षु. किमर्थं दिश् इति स्त्रीलिङ्गे अस्ति. अतः भिन्नासु दिक्षु इति भवति अत्र. पश्यतु अत्र भिन्न स्त्रीलिङ्गे दिक्षु इति बहुवचने अस्ति. सप्तमी विभक्ति अस्ति. अतः भिन् भिन्ना दिक् तत्र भिन्ना भिन्नाः भिन्नाः दिशः इति भवति अत्र. इदानीं तस्य तस्य सप्तमी भक्ति भिन्नासु दिक्षु इति खलु. भिन्नासु दिक्षु इति भवति अत्र. भिन्नासु दिक्षु विदिक्षु उत्पन्नं प्रकम्पनम् इत्युक्ते कम्पनं प्रकम्पन प्रकृष्टेन कम्पनं अनुभवेक वेद्यं भवति.
ताडितः ताडितः प्रोड्यूसर्स् दट् कम्पनं.
हा तडितः तडितः कम्पनं. कस्य कम्पनं? तडितः कम्पनम् इति अस्ति खलु. तडितिति तडितिति स्त्रीलिङ्गे अस्ति खलु. तडिति स्त्रीलिङ्गे. सत्यं
कम्पनं अनुभवैकवेद्यं भवति. ओन्लि वेन् यु एक्स्पीरियन्स् इट् यु नो.
हा आम्. अस्तु धन्यवादः. अग्रे इदानीं तत्र शङ्करप्रसाद् महोदय अग्रे.
तदा मयूराः केकारवं कुर्वन्तः मुदा नृत्यन्ति.
तृतीया विभक्ति मुदा इति. परन्तु किमर्थं तत्र मुदा इति तस्य मुदा इति अहं न जानामि. तत्र अत्र क्रियाविशेषणमस्ति मुदा मृदा नृत्यन्ति इति. तत्र क्रियाविशेषणमस्ति तपुस् अव्ययं भवति सामान्यतः.
मुदा जाय्
विद् जाय् इति मुद् 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 मोद मुद् मोदति खलु. मोदति मोदते मोदते क्षम्यता मोदते इति तत्र मुद् इत्यस्य. इदानीं मुदा मुद् अपि एतत्तु नास्ति. एतत् त्रिलिङ्ग क्षम्यताम्. एतत् यद्यपि अत्र स्थूलाक्षरेण लिखितमस्ति परन्तु एतत्तु एतत्तु अलङ्कप्रातिपदिकं नास्ति खलु. मुदा इति अत्र मुद् प्रायः मुद् स्त्रीलिङ्गे अस्ति वा मुद् मुद् अस्ति वा मुद् मुद मुदः इति भवति
आमां
मुद् इति
कवितः सरांसि च नवाम्भसा पूर्णानि भवन्ति सरितः सरित् स्त्रीलिङ्गः
सरांसि इति
सरस्
सरस्
सरः सरस् प्रातिपदिकं सरः सरस् सरांसि
सरित् सरितौ सरितः खलु नव अम्बसा इत्यत्र अम्बस् इत्युक्ते
जलं न्यू वाटर् पूर्ण दे आर् बिल्ड् अप् वित् न्यू वाटर्
आमाम् अम्बः इति भवति तत्र अम्बः जलम् इति अम्बस् तत्र अम्बस् इति अस्ति अत्र अम्बस् इति प्रातिपदिकम् अस्ति अत्र अम्बस् अम्बस् अम्बः अम्बसि अम्बाम् इति भवति अम्बस् इति सकारान्तलिङ्ग अस्ति अम्बः इति भवति मनसि मनांसि अपे तदेव अम्बस् इत्यस्य अम्बः अम्बसि अम्बाम् जलम् इति अर्थः तत्र अम्बस् इति वयम् एकं नूतनपदं जलं अम्बस् अम्बः इति वदामः अम्बुदि खलु अम्बुदि तदेव अस्ति अम्बुदि इति सागरः खलु सागराम्बुदि इति वयं जानीमः अस्तु अग्रे
बालाः वृष्टिजले महता उत्साहेन क्रीडारताः भवन्ति
अत्र किमपि नास्ति किमपि हलन्तप्रातिपदिकं नास्ति
वृष्टिजले
क्रीडारताः उत्साहेन इति अत्र महत् इत्यस्य तृतीया विभक्ति महत् इति महान्तः इति अस्ति महान् इति महत् प्रातिपदिकमस्ति तस्य तृतीया विभक्ति महत् महान् उत्साहः तस्य महान् उत्साहः इत्यस्य महता उत्साहेन इति महान् उत्साह इति प्रथमाविभक्तिरूपम् अस्ति इदानीं तस्य विभक्तिरूपम् अस्ति उत्साहेन इदानीं कीदृशेन उत्साहेन महता उत्साहेन भवान् इत्यस्य भवती उक्तवान् महति अतः रूपसमानमेव भवति इति जानीमः चेत् सकारान्तः अस्ति खलु
भवता
वणिजा इति तडिता इति अभवत् तडिताय भवत् तादृश एव तडिता तरित् इत्यस्य तरिता भवति तत्र रूपं समानमेव अस्ति तत्र किमपि पुल्लिङ्गे भवतु स्त्रीलिङ्गे भवतु इदानीं पश्यति जगत् इत्यस्ति सकारान्तः जगत् इत्यस्य तृतीया विभक्तिरूपं किम् अस्ति जगता एव जगता एव जगता एव जगता एव तृतीया विभक्ति अतः रूपाणि तृतीया विभक्ति आरभ्य रूपाणि समानानि एव भवन्ति सामान्यतः अग्रे
यदा आकाशे इन्द्रतनुः प्रत्यक्षं भवति तदा तेषां चक्षूंषि प्रकाशितानि भवन्ति
अत्र
इन्द्रधनुः धनुषि
इन्द्रधनुष् इति इन्द्रधनुष् इति तत्र नपुंसकलिङ्गे धनुषि इत्यस्य
धनुः धनुषि धनुंषि
सम्यक् नपुंसकलिङ्गे सम्यक् अग्रे तत्र अग्रे चक्षूंषि
चक्षूंषि चक्षूंषि चक्षुष सकारान्त नपुंसकलिङ्गशब्दः चक्षुः चक्षुषि चक्षूंषि
अग्रे
मनांसि च हर्षेण प्रफुल्लानि भवन्ति मनसि मनांसि मनः मनांसि
अत्रापि पश्यतु अत्र चक्षूंषि मनांसि इति जानीमः रूपं दृष्ट्वा एव वयम् ऊहितम् ऊहां कर्तुं शक्नुमः एतत् नपुंसकलिङ्गमस्ति परन्तु अत्र विशेषणमपि अस्ति विशेषणं दत्वा झटिति वयं ज्ञातुं शक्नुमः प्रकाशितानि प्रफुल्लितानि इति अस्ति खलु तत्र आनि आनि अत्र भवति तत्र नपुंसकलिङ्गे एव अस्ति अतः तत्र विशेषणमस्ति अतः चक्षुषि प्रकाशितानि नपुंसकलिङ्गे अस्ति अतः विशेषणस्य यद्लिङ्गं यद्वचनं या विभक्ति तस्य विशेषणस्य भवति इति अस्ति खलु विशेषस्य लिङ्गं यद्वचनं यात् विभक्तिः अस्ति विशेषणस्य भवति चक्षूंषि विका प्रकाशितानि इति नपुंसकलिङ्गे सम्यक्
मनांसि प्रफुल्लानि कृषकाः क्षेत्राणि कृष्ट्वा बीजानि वपन्ति क्षेत्राणि कृष्ट्वा बीजानि वपन्ति
कर्षति कर्षणं कृष्ट्वा इति भवति कर्षणं कृष्ट्वा इति भवति बीजानि वपन्ति वपति टु टु किमस्ति तत्र सोयि
क्रमेण सस्यसम्पद् वर्धते सम्पद् सकारान्त स्त्रीलिङ्गशब्दः सम्पद् अथवा सम्पत् सम्पदौ सम्पदः
सम्यक् क्रमेण सस्यसम्पद् वर्धते अथवा क्रमेण सस्यसम्पदः वर्धन्ते इति भवति क्रमेण सस्यसम्पदः वर्धन्ते सम्यक् उत्तमं धन्यवादः
धन्यवादः परं यदा अतिवृष्टिः भवति तदा महती विपद् सञ्जायते अत्र विपद् दकारान्त स्त्रीलिङ्गे शब्दः अस्ति विपद् विपदवद्भदः महती अपि स्त्रीलिङ्गे शब्दः अस्ति महती महत्यौ महत्यः
अतः एव तत्र महती अत्र पूर्वं वयं दृष्टवन्तः खलु महता उत्साहेन महता उत्साहेन आसीत् तत्र उत्साहः इति स्त्रीलिङ्ग पुल्लिङ्गे अस्ति अतः महता इति भवति इदानीं तत्र विपद् महती विपद् महती इति अत्र श्रीलिङ्गे अस्ति विपद् इति श्रीलिङ्गे अस्ति महती विपद् महान् इत्यस्य महत् इत्यस्य त्रिलिङ्गं महती इति अस्ति महती महत्यौ महत्यः इति तत्र ईकारान्त त्रिलिङ्गपदमस्ति ईकारत्रिलिङ्गपदम् इति एव भवति महत् इत्यस्य त्रिलिङ्गे महती इति अग्रे
सरितां तीरेषु विद्यमानानि लघूनि गृहाणि जले निमग्नानि भवन्ति सरित् सरितौ सरितः त्रिलिङ्गे अस्ति सरितां षष्ठी बहुवचनमस्ति सरितां तीरेषु विद्यमानानि लघूनि गृहाणि जले निमग्नानि भवन्ति यदा अतिवृष्टिः तदा
सम्यक् अतः भवताम् इति भवत् इत्यस्य रूपम् इति अतः तदेव अस्ति सर्वत्र भवताम् इति जगतां पतिः जगत् इत्यस्य यद्यपि नपुंसकलिङ्गे अस्ति तस्य षष्ठी जगतां तत्र सरिताम् अत्र सुहृदाम् इति खलु सर्वत्र रूपाणि समानमेव पुल्लिङ्गे भवतु स्त्रीलिङ्गे भवतु नपुंसकलिङ्गे भवतु तत्र हलन्तप्रातिपदिकस्य रूपाणि समानानि भवन्ति इत्यस्य भक्त्या आरभ्य सामान्यतः पश्यामः इदानीं अग्रे
पशुपक्षिणः लघवः प्राणिनः च म्रियन्ते तत्र अत्र पक्षिन् इति पुल्लिङ्गे अस्ति नकारान्त तथा प्राणिन् अपि पुल्लिङ्गे नकारान्त अस्ति पक्षिणौ योगिनौ योगिनः तथा प्राणिनौ प्राणिनः
पक्षिनौ पक्षिणः तत्र दीर्घत्वं भवति इति तत्र पक्षी पक्षिणौ पक्षिणः इति अग्रे तत्र किमासीत् प्राणिनौ प्राणिनः इति अत्र एतदपि पुल्लिङ्गपदमस्ति एतत् प्राणिनः इति नकारान्तपुल्लिङ्गपदमस्ति गुणी गुणिनौ गुणिनः खलु तदेव पुल्लिङ्गे अस्ति चेत् किं भवति नकारान्तपुल्लिङ्गपदमस्ति चेत् प्रथमाविभक्तिरूपं दीर्घं भवति अत्र नकार यदा नकारः लोपः भवति तद् पूर्वस्य दीर्घः भवति इति अस्ति यथा तदेव अस्ति परन्तु नपुस्तकलिङ्गे न भवति कर्म इत्यस्य कर्म एव भवति कर्म इति न भवति इदानीं पर्यन्तं भीमकर्मन् इति अस्ति अत्र भीमकर्म पुल्लिङ्गे अस्ति अतः भीमकर्म इति भवति नकार प्रथमाविभक्तिरूपं किम् अस्ति भीमकर्म इति भवति भीमकर्माणौ भीमकर्माणः इति भवति परन्तु नपुस्तकलिङ्गे न भवति इति तादृश तत्र द्रष्टव्यं रूपं दृष्ट्वा एव तत्र सूत्राणि सन्ति तद् सूत्रेण तत्र तादृश तदपेक्षया रूपं दृष्ट्वा एव वयं ज्ञातुं एतदेव सुलभमेव अहं चिन्तयामि अस्तु अग्रे
एवमेव अनावृष्ट्या अपि आपदः सम्भवति सम्भवन्ति अत्रापि आपदः आपत् आपद् श्रीलिङ्गे अस्ति आपद् आपदौ आपदः
आपदः इति तत्र सम्भवन्ति इति सम्भवन्ति इति क्रियापदमस्ति अकर्मक अस्ति अत्र आपदः इति किमस्ति तत्र कर्ता अस्ति खलु कर्तृकारकमस्ति सम्भवन्ति इति बहुवचने अस्ति आपदः इति आपदः सम्भवन्ति अतः आपदः इति षष्टिविभक्ति अपि भवितुमर्हति खलु आपदः अपि भवितुमर्हति षष्टि अपि भवितुमर्हति पञ्चमे अपि भवितुमर्हति द्विवचनविभक्ति बहुवचने अपि भवितुमर्हति अतः वाक्यत्वा एव वयं ज्ञातुं शक्नुमः कस्यां विभक्त्याम् अस्ति इति यत् अत्र द्वितीय क्षमता प्रथमाविभक्ति बहुवचने वाक्यं दृष्ट्वा एव अतः तत्र किञ्चित् एतदेव क्लेशः अस्ति विभक्ति वाक्यं दृष्ट्वा एव विभक्ति कस्यां विभक्त्याम् अस्ति इति ज्ञातव्यं भवति वाक्यं दृष्ट्वा वाक्यस्य अर्थः कः इति कर्ता वा इति तत्र कर्ता वा अथवा आपादनकारकं वा अथवा सम्बन्धकारकं वा इति अथवा कर्मकारकं वा इति तत्र अग्रे
तदा जलस्य अभावेन सरितः शुष्यन्ति अत्रापि यदा अनावृष्ट्या भवति तदा जलस्य अभावेन
सरित्रीलिङ्गे
अस्ति सरित् सरितौ सरितः प्रथमः
इदानीं पश्यतु सरित् इति यदि नपुस्तकलिङ्गे अस्ति चेत् किं भवति सरित् सरिति सरिति सरहन्ति इति तादृश भवति खलु अत्र नास्ति अत्र अत्रापि वयं तदेव अस्ति द्विवचने दीर्घ ईकारः भवति बहुवचने नुमाग न भवति नपुस्तकलिङ्गे न इति चिन्तयामः चेत् तद् नकारः भवति बहुवचने इति सरित् इत्यस्मिन् तत्र त्रिलिङ्गे अस्ति अतः किमपि परिवर्तनमस्ति केवलं वर्णमेलनमेव तत्र यद् अस्ति यत् प्रत्यय अस्ति तद् योजनीयं तावदेव सरित् सरितौ सरितः अग्रे
वृक्षाः विनश्यन्ति तत्र किमपि हरन्तनस्ति कृषिकर्म असाध्यं भवति कर्म अस्ति तत्र नपुंसकलिङ्गे अस्ति कर्म कर्मणि कर्माणि भवति
कृषिकर्म
मा एकवचनस्ति कृषिकर्म असाध्यं भवति कर्मन्
भीमकर्मन् इत्युक्ते तत्र बहुव्रीहि समासः भीमकर्मन् इति यः सः इति अत्र अतः पुल्लिङ्गे भवति यद्यपि कर्म इति नपुंसकलिङ्गे अस्ति भीमकर्म बहुव्रीहि समासे तत्र अन्यपदार्थप्रधानः खलु अन्यपदस्य यद् लिङ्गम् अस्ति तदेव भवति अतः भीमकर्म इत्यस्मिन् तत्र यस्य कर्म यस्य यः तत्र भीम इत्युक्ते तत्र भीधातुः खलु भी अन्यान् भाययति भापयति अथवा भायति भीमः भवति अतः वन् हू डस् बिग् तत्र कार्याणि बृहत् कार्याणि तत्र भीमकर्मा मृकोदरः इति खलु तत्र वयं जानीमः खलु तत्र भगवद्गीतायां भीमकर्मा मृकोदरः इति
प्रथमाध्याये
अस्ति खलु के के सन्ति इति तत्र दुर्योधन पश्यति पृच्छति तदा भवति वदति खलु भीमकर्मकोदर अस्ति इति अस्तु अत्र कृषिकर्म इति अत्र नास्ति तत्र कृषिकर्म इति कृषि प्रायः एतत्तु अन्यप्रदार्थप्रदान नास्ति एतत्तु किमस्ति तत्र अन्यसमासः अस्ति किमस्ति अत्र समासः कः अस्ति कः समासः अत्र कृषेः कर्म कृषेः कर्म चकारः कः मनसि न भवति कः समासः समासः अस्ति खलु तद् द्वन्द्व द्वन्द्व बहुव्रीहि सामान्य
षष्टि तत्पुरुष
तत्पुरुष तत्पुरुषमासः खलु कर्मस्य कृषिकर्म इति तत्र नपुंसकलिङ्गे तत्पुरुषमासः अस्तु अग्रे
कृषिं विना धान्योत्पत्तिः एव न भवति किमपि तत्र
किमपि नास्ति कृषिं विना विना इति तत्र विना योगे तृतीया कृषिं
विना
कृषेः विना अथवा किमस्ति अत्र तृतीया भवितुमर्हति द्वितीया भवितुमर्हति अपि पञ्चमी अपि पञ्चमी कृषेः विना इति भवितुमर्हति कृषेः विना कृषेः विना कृषिं विना अथवा कृषिणा विना इति भवेत्
खलु कारणवस्तूनाम् अभावेन जनाः क्लेशम् अनुभवन्ति तदपि अभावेन तृतीया अस्ति अभावेन
तृतीया अस्ति अभावेन इति अत्र तृतीया विभक्ति अस्ति कारकतृतीया अस्ति यत्र केन कारणेन खलु अभावेन अत्र किमस्ति अत्र कारकतृतीया अस्ति
क्रमशः जीवनम् एव दुस्सहं भवति
दुःसहम् इति अभिव्यक्ति अस्ति अस्तु अत्र नास्ति किमपि नास्ति धन्यवादः अग्रे इदानीं तत्र द्वारकनाथ महोदय पठति वा म्यूट् मध्ये अस्ति इदानीं
पठामि महोदय अतिवृष्टेः अनावृष्टेः च मूलं मानवः एव घनविपिनानाम् अनियन्वितनाशनेन पर्यावरणम् असन्तुलितं भवति यन्त्रागारेभ्यः निःसरतां विषमयपदार्थानां मेलनेन जलस्रोतांसि प्रदूषितानि भवन्ति पर्यावरणप्रदूषणेन ऋतूनां गतिविगतयः परिवर्तिताः भवन्ति तेन समग्रमपि जगत् परिवर्तते अतः पर्यावरणसंरक्षणे वयं बद्धदराः भवेम
बद्धादराः भवेम अत्र अतिवृष्टिः अनावृष्टेः च मूलं मानवः एव सत्यं खलु इदानीं पाकिस्तानदेशे इदानीम् अतिवृष्टिः अभवत् तद् मानवस्य कारणेन एव खलु घनविपिनानाम् अनियन्त्रितनाशनेन अन्रेग्युलेटेड् घनविपिनानां विपिनम् इत्यत्र घनविपिनम् अरण्यं विपिनम् इत्युक्ते घनविपिनानाम् अनियन्त्रितनाशनेन पर्यावरणम् असन्तुलितम् सन्तुलितः असन्तुलितं भवति सन्तुलितम् असन्तुलितं वयं जानीमः खलु असन्तुलितम् इत्युक्ते अर्थः जानन्ति खलु सर्वे
इम्बेलेन्स्
इम्बेलेन्स् पर्यावरणम् इति जानीमः पर्यावरणम् इत्युक्ते एन्वायरन्मेण्ट् इति अस्ति यन्त्रागारेभ्यः यन्त्रागारः इत्युक्ते आगारः आगारः खलु आगारः खलु आगारः इत्युक्ते आगारः आगारः खलु आगारः यन्त्रागारः आगारः इति भवति तत्र अस्तु यन्त्रागार फ्याक्ट्रि फ्याक्ट्रि यन्त्रागारः तत्र किमस्ति अत्र आगारः इति कुत्र आगारः
मेशिन् फ्याक्टरि मेशिनरी
आम् सत्यम् अग्रे निस्सरतां खलु स्थान इति खलु तत्र स्थानकं अत्र मुम्बै मध्ये आगार इति वडल् आगार इति आगार इति बस् स्टाप् इति वदामः तत्र स्टेशन् खलु तदेव आगारः खलु तत्र आगर नास्ति आगारः आगारः
आगार
स्टेशन् आम् धान्यागारः खलु धान्यागारः खलु तादृश यन्त्रागारः धान्यागारः तत्र यन्त्रः यन्त्राणि यत्र विद्यन्ते सः तत् यन्त्रागारः तत्र यन्त्रागारेभ्यः तत्र यन्त्रागार इत्युक्ते फ्याक्ट्रि खलु निस्सरतां विषमयपदार्थानाम् इति कलुषितजलेन तत्र मेलनेन पदार्थानां मेलनेन जलस्रोतांसि स्रोतांसि स्रोतस् इति नपुंसकलिङ्गपति स्रोतांसि प्रदूषितानि भवन्ति अत्र वयं जातुं शक्नुमः प्रदूषितानि इति नपुंसकलिङ्गे अस्ति अतः स्रोतांसि इति नपुंसकलिङ्गे इति जातुं शक्नुमः जलस्रोतः इति प्रदूषितं भवति इति तद् प्रदूषितं भवति जलस्रोतस् स्रोतस् जलस्रोतः खलु स्रोतस् स्रोतः स्रोतसि स्रोतांसि खलु अत्र अस्तु पर्यावरणप्रदूषेण ऋतूनां गतिविगतयः गतिविगतिः तत्र तस्य गतिविगतिः तत्र विगति तस्य बहुवचने गतिविगतयः इति बहुवचने अस्ति परिवर्तिताः भवन्ति तेन परिवर्तिताः इति त्रिलिङ्गे किमर्थं तत्र गतिः इति गतिः विगति इति त्रिलिङ्गे अस्ति गतिः इति त्रिलिङ्गपदमस्ति तत्र किं प्रत्ययेन भवति मतिवत् अतः मतिः मत्यौ मतयः खलु अतः गतिः गत्यौ गतयः इति भवति अत्र परिवर्तिताः इति वयं जानीमः तत्र परिवर्तिताः भवन्ति अस्तु तेन समग्रमपि जगत् परिवर्तते जगत् इति अत्र तकारान्त पुल्लिङ्ग वा नपुंसकलिङ्ग वा
नपुंसकलिङ्ग
अतः एव जगत् अतः किं भवति रूपणिकं
जगत् जगतौ जगति
जगति इति खलु अत्र प्रायः जगत् इत्यस्य पुल्लिङ्गपदमस्ति वा पुल्लिङ्ग अपरं प्रायः तत्र जगत् इति बहु एतत् बहुवी समासे भवति खलु किमस्ति अत्र पुल्लिङ्गे जगत् इत्यस्य अस्ति वा जगतः पितरौ वन्दे खलु जगत् जगन् इति जगन् तत् भिन्नमस्ति जगतः जगतः क्षम्यताम् अत्र नास्ति पुल्लिङ्ग नपुंसकलिङ्गे एव अस्ति परं जगत् इति सामान्यतः वयं एकवचने एवम् एक एव जगत् खलु अतः तत्र तत्र बहुवचनस्य रूपाणि द्रष्टुं न शक्नुमः काव्येषु अथवा कुत्रापि जगत् यतः वियत् इत्यस्य आकाशस्य एक एव आकाशे एक एव खलु जगत् एक एव अतः तत्र नपुंसक सामान्यव्यवहारे तस्य बहुवचनरूपाणि द्रष्टुं न शक्नुमः न प्रभवामः अस्तु अतः पर्यावरणसंरक्षणे वयं बद्ध आदराः तत्र आदरं बद्ध आदराः बन्धादः इत्युक्ते वयं रक्षणे, आदरः इत्युक्ते रेस्पेक्ट्, बद्ध आदरः, गिव् रेस्पेक्ट्, कमिटेड् बद्धादरः, क्षम्यतां, सत्यं बद्धादरः भवेम इति वयं जानीमः इदानीं तत्र रूपाणि एकवारं, तत्र तदेव अस्ति तत्र सर्वत्र एकवारं झटिः कुर्मः. अस्तु, वत्सला भगिनी पठति वा, रिक्तस्थानानि पूरयत एकवारं.
महोदय, अत्र जगत् नपुंसकलिङ्गशब्दः वा पुंलिङ्गशब्दः वा, तेन समग्रमपि जगत्
न, जगत् एव, जगति नपुंसकलिङ्गे एव, जगत् जगति, जग जगन्ति, जगान्ति न भवति, जगन्ति इति भवति अत्र, किञ्चित् विशेषमस्ति अत्र, सामान्यतः अत्र नुमागमः न भवति खलु, अत्र यत्र यत्र नुमागमः भवति तदा तत्र क्षम्यतां, जगत् इत्यस्य अपि नुमागमः भवति, परन्तु अत्र तस्य दीर्घत्वं न भवति, पर विशेषपदमस्ति, अन्यत्र सर्वत्र यत्र यत्र नुमागमः भवति पुल्लि नपुंसकलिङ्गे, तत्र मनस् मनांसि, श्रोतश्रोतांसि, तादृश अत्र दीर्घः भवति, श्रोतश्रोतांसि, मनस् मनांसि, चक्षूंषि इति खलु, तत्र सर्वत्र दीर्घत्वं भवति, परन्तु अत्र न भवति, कुत जगत् इत्यस्य विशेषमस्ति, अत्र विशेष तत्र तस्य कृते जगान्ति इति न भवति, तस्य कृते विशेषसूत्रमस्ति, तादृशरूपमस्ति व्यवहारे, तत् स्वीकुर्मः. अस्तु, अग्रे पठतु भगिनि.
रिक्तस्थानानि पूरयत, एकवचनं, द्विवचनं, बहुवचनं, विद्युत्, विद्युतौ, विद्युतः, आशीः,
भगिनि लिङ्गमपि वदतु.
विद्युत् स्त्रीलिङ्गं,
सत्यम्, अग्रे
आशीः नपुंसकलिङ्गम्, आशीः आशिषौ, आशिषः
आशींषि इति भवेत् तर्हि आशींषि
श्रीलिङ्गं, श्रीलिङ्गम् आशीः श्रीलिङ्गम्, आशिषौ, आशिषः.
पश्यतु, तत्र बहुवचने यत्र इकारः श्रूयते तदा तत्र किमस्ति, अत्र तत्तु प्रातिपदिकं हलन्तं, परन्तु अन्ते बहुवचने इकारः श्रूयते चेत् तत् नपुंसकलिङ्ग इति ज्ञातव्यम्. आशिषि इति, आशींषि इति अथवा दीर्घतं भवति नास्ति, जगन्ति इति अस्ति, अतः तत्र इकारः श्रूयते, जगत् इत्य जगन्ति नपुंसकलिङ्गे अस्ति, आशिष्यः इत्यत्र नास्ति, अतः तत् पुल्लिङ्ग अथवा स्त्रीलिङ्ग इति नपुंसकलिङ्ग न भवति एव, पुल्लिङ्ग स्त्रीलिङ्ग ज्ञातव्यं द्रष्टव्यम्. इदानीं वयं जातवन्तः आशीः इति स्त्रीलिङ्गे अस्ति इति कृत्वा आशीः, आशिषौ, आशिषः. अग्रे,
श्रोतांसि, श्रोतः, श्रोतसि, श्रोतांसि, दिस् इस् नपुंसकलिङ्गं.
श्रोतांसि इति इकारः श्रूयते, अनुस्वार अथवा नकार अथवा अनुस्वारः अस्ति चेत् तत् सामान्यतः इकारः अस्ति चेत् तत् नपुंसकलिङ्ग इत्येव ज्ञातव्यमस्ति. अतः श्रोतः, श्रोतसि, श्रोतांसि इति भवति. धन्यवादः, धन्यवादः भगिनि. यशोदा भगिनी अग्रे.
दिक्, दिक् दिशौ, दिशः.
तत्र कीदृश लिङ्गं, किं
स्त्रीलिङ्ग,
दिक् दिशौ, दिशः इति वयं न ज्ञातुं शक्नुमः रूपं दृष्ट्वा, य पुल्लिङ्ग अपि भवितुमर्हति, स्त्रीलिङ्ग अपि भवितुमर्हति, नपुंसकलिङ्गं भवति एव, पर दिक् इत्यस्य दिशि, दिशां, दिशांशि इति एव भवेत् नपुंसकलिङ्गस्ति चेत्, तद् नास्ति खलु, दिक् दिशौ, दिशः इति स्त्रीलिङ्गे, पुल्लिङ्ग अथवा स्त्रीलिङ्ग इति स्त्रीलिङ्ग, स्त्रीलिङ्ग एव, कुत्रापि नास्ति, दिश् दिक् एक एव, स्त्रीलिङ्गे एव अस्ति सर्वदा. अग्रे,
चक्षु, चक्षुषि, चक्षुंषि, चक्षुंषि,
स्त्रीलिङ्गे, स्त्रीलिङ्गे, पुल्लिङ्गे, नपुंसकलिङ्गे,
नो इट् इस् नपुंसकलिङ्गे न,
सम्यक् सम्यक्, चक्षुंषि. अग्रे,
देन् परिषद, परिषद वा, परिषद्, परिषद्, परिषदौ, परिषदः,
परिषदः इति एतत् लिङ्गं वयं दृष्टवन्तः पूर्वं, परिषद् इति, परिषद् श्रीलिङ्गपदमस्ति, परिषत् श्रीलिङ्ग अस्ति तत्र, वयं ज्ञातुं न शक्नुमः, केवलं तत्र यद् दत्तमस्ति तदेव स्वीकृत्य एव तत्र किमपि ज्ञातुं न शक्नुमः कथम् इति परिषद् इति तत्र केन तत्र एकमस्ति यदि व्याकरणं पठेम केन प्रत्याहारे केन प्रत्ययेन शब्दस्य उत्पत्तिः अभवत् इति दृष्ट्वा वयम् ऊहं कर्तुं शक्नुमः तद् इदानीं नास्ति पश्यतां पश्यतु मति इति अस्ति तिन् इति प्रत्ययः सर्वदा स्त्रीलिङ्गे एव भवति तिन् इति मतिः गतिः तत्र सर्वदा कृत कृत् प्रत्ययेन यत् प्रातिपदिक सिद्ध्यति तत् सर्वदा स्त्रीलिङ्गे भवति कुत्रचित् घञ् प्रत्ययः अस्ति घञ् प्रत्ययः इति एकं कृत कृत् प्रत्ययः अस्ति तेन कृत् तेन प्रत्ययेन निर्मितः शब्दः सर्वदा पुल्लिङ्गे एव भवति अतः कुत्रचित् वयं व्याकरणं ज्ञात्वा केन कस्य केन प्रत्ययेन एतस्य अस्य शब्दस्य उत्पत्तिः अभवत् इति ज्ञात्वा ऊहां कर्तुं शक्नुमः परन्तु तदपि समीचीनं न भवति कुत्रचित् अतः द्रष्टव्यं तत्र कथासु अथवा ग्रन्थेषु यत्र पद्येषु तत्र कस्य तत्र विभक्त्याम् अस्ति इति क्षम्यतां कस्मिन् लिङ्गे अस्ति इति ज्ञातव्यम् अस्माभिः कोऽपि अन्यः मार्गः नास्ति अतः तत्र संस्कृते क्लेशः अस्ति लिङ्गस्य क्लेशः सर्वदा
लिङ्गक्लेशः अस्ति
पश्यतु अत्र अजन्तशब्दानां प्रातिपदिकानां वयं ज्ञातुं शक्नुमः किमर्थं तत्र आकारान्त ईकारान्त सामान्यतया भवति ह्रस्वस्य किञ्चित् क्लेशः भवति परन्तु तदपि ज्ञातुं शक्नुमः हलन्तस्य किञ्चित् क्लेशः भवति पुल्लिङ्गे अथवा स्त्रीलिङ्गे नपुंसकलिङ्गस्य बहुवचनरूपं दृष्ट्वा ज्ञातुं शक्नुमः अग्रे
कर्म कर्मणि कर्माणि
कर्मन् नकारान्त नपुंसकलिङ्गस्य अग्रे
कर्माणि मनसि मनः मनसि मनांसि
कीदृशप्रातिपदिक किं
नपुंसकलिङ्ग
प्रातिपदिकं किं मनः मन् नास्ति
मनस्
अतः तत्र अस्य पश्यतु नपुंसकलिङ्गः भ्रमः भवितुमर्हति मनस् इत्यस्य मनः इत्यस्मिन् तत्र मन एव वा इति तादृशं नास्ति अत्र मनस् इति प्रातिपदिकम् अस्ति तत् पदं भवति मनस् इति तस्य अन्तिमकारस्य विसर्गः भवति न तु प्रत्ययस्य विसर्गः एतत् धन्यवादः अग्रे शङ्करप्रसाद् महोदय अग्रिमः
मनस् सरितः सरितः सरित् तकारान्तस्त्रीलिङ्गशब्दः सरित् सरितौ सरितः
सरितः इति दृष्ट्वा नपुंसकलिङ्ग न इति ज्ञातुं शक्नुमः परन्तु पुल्लिङ्ग बहवः अस्ति वा न स्त्रीलिङ्ग अस्ति वा इति न ज्ञातुं शक्नुमः तद् द्रष्टव्यम् अस्माभिः दृष्ट्वा एव ज्ञात्वा एव वक्तुं शक्नुमः तत्र रूपं दृष्ट्वा एव वयं ऊहां कर्तुं न शक्नुमः खलु
जगत् जगत् तकारान्त नपुंसकलिङ्गशब्दः जगत् जगति जगन्ति
जगन्ति सम्यक्
आपत् आपद् दकारान्तस्त्रीलिङ्गशब्दः आपत् आपद् अथवा आपद् आपदौ पदः
आपदः इति अत्र वियत् इति अस्ति किं भवति वियत् आकाशः
वियत् वियत् तकारान्तस्त्रीलिङ्गशब्दः वियद् अथवा वियदौ वियदः
वियतः नपुंसकलिङ्गशब्दः
वियत् वियति वियन्ति
सम्यक् परन्तु तत्र वियति अप वियन्ति वयं द्रष्टुं न कुत्रापि काव्येषु न
जगत्
सत्यं वियत् अपि जगत् अपि एक एव खलु, अतः तत्र अन्यत्र गन्तुं न शक्नुमः. तत्र वियन्ति इति कुत्रापि न कथासु न.
आमां.
परन्तु भवती मानवानां देवानाम् अपि अन्ये कोऽपि भवितुमर्हति खलु तत्र. परन्तु सामान्यतः तत्र एक पुल्लिङ्ग् क्षम्यताम् एकवचने एव भवति खलु तेषां प्रयोगः भवितुमर्हति. अस्तु, धन्यवादः. राधिका भगिनी, अहं न विस्मृतवान् प्रायः राधिका भगिनी. न पठितवती वा? क्षम्यतां भगिनि, न पठितवती एव वा? अस्तु अस्तु, न दृष्टवान्. अस्तु,
आवरणे आवरणे दत्तानां शब्दानाम् आधारेण रिक्तस्थानानि पूरयत. सरितौ सरितौ सरि प्रवहतः अर्जुनस्य धनुः स्वयं शब्दं करोति.
धनुष् इति कीदृशः अस्ति? धनुष् इति
धनुष्
लिङ्गं किं?
नपुंसकलिङ्गं.
धनुष् इति एकवचने किम् अस्ति? एकवचने किम् अस्ति?
धनुः धनुः
धनुस् इति अस्ति. धनुस् इति धनुष् इति तत्र सकारः भवति तत्र सन्धि सन्धिना अत्र मूले धनुस् सकारान्त धनुस् धनुः धनुषि धनुषि अग्रे आमां धनुः आमां श्रूयते श्रूयते धनु.
सीतायाः वचस् सीतारः वाचः अमृतसदृश सदृशानि वाचः
गीतायाः वाक्यानि अमृतसदृशानि. वाक्यानि इति अस्ति अत्र वचस् इति अस्ति खलु. वचस् इति कीदृशपदः अस्ति? अमृतसदृशानि इति वयं जातवन्तः खलु. अमृतसदृशानि इति नपुंसकलिङ्गे अस्ति अतः वचस् अपि नपुंसकलिङ्गे भवेत् खलु. अत वचस् इत्यस्य विशेषणमस्ति अतः वचस् इत्यस्य बहुवचनरूपं किम् अस्ति? इदानीम् अमृतसदृशानि इति बहुवचने अस्ति नपुंसकलिङ्गे अस्ति अतः वचस् इति नपुंसकलिङ्ग इति वयं ज्ञातुं शक्नुमः. किं भवति सकारात् नपुंसकलिङ्ग अस्ति किं भवति? पश्यतु धनुः धनुंसि खलु तथैव वचस् इत्यस्य नपुंसकलिङ्गे भवति. वचः वचसि वचांसि खलु तदेव खलु. तत्र रूपं धनुस् धनुषि यथा यथा अस्ति तथैव वचस्ति एव नपुंसकलिङ्गे अस्ति. अमृतसदृशानि इति वयं जातवन्तः. अग्रे वाक् इति त्रिलिङ्गे वच वचः इति वचस् इति वचः इति नपुंसकलिङ्गे एतद् रूपसाम क्षम्यताम् अर्थसमानमेव. वाक् इति वाक्ति अपि वचः एव वचः इति वाक् वचः इति नपुंसकलिङ्गे वाक् इति स्त्रीलिङ्गे. यथा यथा पश्यतु अत्र संस्कृते तत्र एकस्य कृते बहूनि भिन्नभिन्न लिङ्ग भवन्ति खलु. तत्र यथा भार्या अस्ति इदानीं भार्या अस्ति कलत्रम् इति भवति. भार्या इति स्त्रीलिङ्गे अस्ति पत्नी इति स्त्रीलिङ्गे अस्ति कलत्रम् इति अस्ति अपि अस्ति नपुंसकलिङ्गे अस्ति भार्या एव अर्थे. दारा इति बहुवचने अस्ति दाराः इति पुल्लिङ्ग अस्ति परन्तु अर्थः कः? भार्या इति अर्थः एकवचने एव दारः इति भवति. तादृश
अमृतसदृशानि अस्ति सो नपुंसकलिङ्ग
सन्ति अमृतसदृशानि सन्ति खलु
सन्ति सन्ति
अस्तु अतः वचस् इत्यस्य नपुंसकलिङ्ग बहुवचने भवेत् वचांसि खलु. नुमागमः भवति अत्र यदा नुभागः भवति पूर्वस्य अकारस्य दीर्घः भवति अकार यथा यद् स्वरः अस्ति तस्य दीर्घत्वं भवति वचांसि इति भवति
वचांसि
अतः मनांसि धनुस् धनूंसि. अग्रे अग्रिमः
कृष्णस्य आशिषः आशिषः अर्जुनः जयं प्राप्नोति
कृष्णस्य अर्जुनः जयं प्राप्नोति
कृष्णस्य
आशिषः अत्र कृष्णस्य अर्जुनः जयं प्राप्नोति इति क इति अस्ति क्रियापद वाक्यमस्ति प्राप्नोति कः कः प्राप्नोति अर्जुनः प्राप्नोति जयं प्राप्नोति इदानीं कृष्णस्य केन केन जयं प्राप्नोति इति भवति प्रश्नः केन केन अर्जुनः जयं प्राप्नोति अथवा कया
आशिषया
आशिष इत्यस्य किं भवति तत्र भवत् इत्यस्य तृतीयविभक्तिरूपं किं
भवता
भवान् इत्यस्य तृतीय भवता तर्हि आशिष इत्यस्य किं
भव
वचस् इत्यस्य तृतीयविभक्तिरूपं किं भवतु वचस् इत्यस्य वचः इत्यस्य वचस् इत्यस्य तृतीयविभक्तिरूपं वचस हा धनुष् इत्यस्य तृतीयविभक्तिरूपं तदेव रूपं समानमेव अतः किमपि परिवर्तनम् अस्ति भवान् इत्यस्य जानाति चेत् अतः उक्तवान् भवान् इत्यस्य जानाति चेत् तदेव रूपम् अस्ति धनुषा वचस बहु सरलमस्ति
महोदय
त्रिलिङ्गमस्ति परन्तु तृतीयाविभक्ति आरभ्य त्रिलिङ्गे भवतु नपुंसकलिङ्गे भवतु पुल्लिङ्गे भवतु भवत् इव भवति सामान्यतः तत्र हलन्तप्रातिपदिकं हलन्तप्रातिपदिकमस्ति खलु अतः एव उक्तवान्
अस्तु महोदय
स्रोतस् स्रोतसा इति भवति सरित् सरिता भवति सम्पत् सम्पदा विपद् विपदा विपद् विपदा इति तत्र वियत् इति नपुंसकलिङ्गति वियता इति भवति वियता इति भवति तादृश तत्सर्वत्र जगत् जगता कर्म कर्मन्निति कर्मणा चक्षुश्चक्षुषा दिक् इति दिशा अग्रे
सम्पदौ उद्वेगकारौ सम्पदौ
उद्योग उद्वेग कारिण्यस्य लिङ्गं किम् अस्ति कारिण्यौ इति कारिणी खलु उद्वेगकारिणी उद्योग उद्वेगकारिण्यौ उद्वेगकारिण्यः उद्वेगकारिण्यस्त्रीलिङ्गे अस्ति द्विवचने अस्ति कारिण्यौ खलु उद्वेगकारिणी उद्वेगकारिण्यौ उद्वेगकारिण्यः इति अतः वयं ज्ञातुं शक्नुमः एतत् स्त्रीलिङ्गपदमस्ति इति कृत्वा सम्पदपि स्त्रीलिङ्गपदमस्ति सम्पद् इत्यस्य
विशेषणमस्ति
उद्वेगकारिण्यौ अतः सम्पदौ विपदौ सम्पदौ विपदौ सम्पदौ विपदौ सम्पद् सम्पद् विपदौ
सम्पद्वेगकारिण्यौ
सम्पद् विपदौ उद्वेगकारिण्यौ अग्रे न पश्यतु शोभन्ते न न पश्यतु भगिनि शोभन्ते इति अस्ति शोभन्ते तत्र कः वचनं किम् अस्ति शोभन्ते इति एकनिमिष एकनिमिष शोभन्ते इति तत्र वचनं किं
वचनं बहुवचनं
तत्र बहुवचने अस्ति तत्र बहुवचने अस्ति इदानीं कर्तृ कर्तृपदं भवेत् खलु तत्र कर्तरी अस्ति कर्तरी शोभते शोभेते शोभन्ते कर्तरी भवेत् तर्हि कर्ता अपि बहुवचने भवेत् खलु तिङ् समानाधिकरणं भवेत् समानाधिकरणं भवेत् अत्र शोभन्ते के शोभन्ते अथवा कानि शोभन्ते इति वाक्यं शोभन्ते न न सरान्ति हंसैः खलु हंसौ नास्ति अत्र हंसैः तृतीया बहुवचने अस्ति हंसः हंसेन हंसैः इति खलु कैः शोभन्ते हंसैः शोभन्ते हंसाः सन्ति सरसि हंसाः सन्ति अतः सरान्ति सरसि सरस्सु हंसाः सन्ति सरस्सु हंसाः सन्ति सरसि बहुवचने सप्तमी भक्तौ सरस्सु इति भवति सरस्सु सरस्सु हंसाः शोभन्ते हंस अतः सरान्ति हंसैः शोभन्ते हंसाः शोभन्ते इति भवति अत्र कर्ता हंसा भवति इदानीं कर्ता नास्ति सरस्येव कर्ता अतः सरांसि शोभन्ते सरांसि हंसैः शोभन्ते अथवा सरस्सु हंसाः शोभन्ते अत्र भिन्नवार्ता हंसाः शोभन्ते नास्ति अत्र अर्थः भिन्नः भवति खलु सरस्सु हंसा शोभन्ते इत्युक्ते कः के शोभन्ते इति हंसाः शोभन्ते इदानीम् अत्र नास्ति इदानीं सरसि एव सरांसि एव शोभन्ते कैः शोभन्ते हंसैः शोभन्ते इति अस्ति अस्तु धन्यवादः झटिति धन्यवादः निरञ्जनभगिनी अग्रिमः
भगवान् अर्जुनाय दिव्ये चक्षुष नपुंसकलिङ्गे अस्ति चकारान्त द्विवचनमस्ति चक्षुषी दत्ते दिव्ये चक्षुषी
दत्ते इति अस्ति दत्ते खलु दत्ते इति तत्र
कृष्णस्य मानुषं कृष्णस्य मानुषं रूपं दृष्ट्वा अर्जुनः सचेतस् नपुंसकलिङ्गे अस्ति सचेतस् चेतः चेतसि चेतांसि सचेतः संवृत्तः भवति वा सचेतः
अर्जुनः सचेतः अर्जुनः सचेतः संवृत्तः
नपुंसकलिङ्गे अस्ति सकारः योगी कुशलः कर्मन् नपुंसकलिङ्गे अस्ति नकारान्त कर्मणि अथवा कर्मसु योगी कर्मसु कुशलः वा कर्मणि कुशलः भवति वा
कर्मणि कुशलः अर्जुनः संवृत्तः अत्र पश्यतु प्रायः एतत् तृतीया भवेत् सचेतसः संवृत्तः इति
सचेतः
केन संवृत्तः इति भवेत् खलु केन संवृत्तः इति अर्जुनः सचेतसा संवृत्तः इति भवेत्
भवति
तृतीया भवेत् प्रायः तृतीया भवेत् केन इति तत्र कर्म तत्र करणे तृतीया सचेतसा इति भवेत् अस्तु अस्तु वयं दृष्टवन्तः इदानीम् अस्तु अग्रिमकक्षायां पुनः कुर्मः अत्रैव स्थगयामः ॐ सर्वे भवन्तु सुखिनः सर्वे सन्ति रामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् भवेत् ॐ शान्ति 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 धन्यवादः
धन्यवादः
शुभरात्रि
धन्यवादः महोदय शुभरात्रि
धन्यवादः धन्यवादः